सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः अजन्तनपुंसकलिङ्गप्रकरणे द्वितीयो भागः, जुलै मासस्य पञ्चमः दिनाङ्कः। येन अक्षरसमां नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनिः नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिः सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। अजन्तनपुंसकलिङ्गप्रकरणे आदौ अकारान्ताः नपुंसकलिङ्गशब्दाः अधीयन्ते। ज्ञानशब्दः आसीत् आदौ, अकारान्तः नपुंसकलिङ्गः ज्ञानशब्दः, साधारणशब्दः। तत्र स्वमोः अमादेशः आदौ विधीयते। कार्याणि नपुंसकलिङ्गानां विशिष्टानि कार्याणि प्रथमाविभक्तौ द्वितीयाविभक्तौ च भवन्ति। इट्स् ओन्ली इन् ऐ मीन् जनरली इन् प्रथम एण्ड् द्वितीयाविभक्ति दट् द चेञ्जस् हेपन् बिकास् लेटर् इट् बिहेव्स् लैक् ए पुल्लिङ्गम्। सो आदौ स्वमोः सु अम् इत्येतयोः स्थाने अम् इत्येषः आदेशो भवति अतो अम् इति सूत्रेण। तेन ज्ञानासु इत्यस्यते ज्ञान अम्, अभिपूर्वः इति पूर्वरूपे ज्ञानम्। एवमेव अमः स्थाने अपि अमादेशः क्रियते, ज्ञानम् इति प्रथमाद्वितीयाविभक्त्योः रूपम्। औङः षि आदेशः, औ प्रत्ययस्य स्थाने नपुंसकाच्च इति सूत्रेण षि इत्यादेशो भवति, यत्र शकारः इत्सम्यकः। तेन ज्ञान इ आद्गुणः इत्यनेन गुणे कृते ज्ञाने, ज्ञानं ज्ञाने। जस् शसोः षिः, षि इत्येषः आदेशः, अत्रापि शकारः इत्, ज्ञान इ इत्यस्ति। अस्य वैशिष्ट्यं भवति षि सर्वनामस्थानम् इत्यनेन सर्वनामस्थानसंज्ञापि अस्ति। तथा सति नपुंसकस्य छलचः इति सूत्रेण अजन्तस्य अजन्तत्वात् नुम् इत्यागमः क्रियते, ज्ञानन् इ। सर्वनामस्थाने च असम्बुद्धौ इत्यनेन उपधादीर्घे ज्ञानानि, ज्ञानं ज्ञाने ज्ञानानि, पुनः ज्ञानं ज्ञाने ज्ञानानि इति रूपं शेषं पुंवत्। अन्यानि रूपाणि यथा पुल्लिङ्गे तथा भवन्ति। ओके, वेन् वि गो टु सर्वनामास् इन् नपुंसकलिङ्ग, ज्ञानशब्द इस् अ जनरल् शब्द आल्वेस् इन् बोत् पुल्लिङ्ग एण्ड् स्त्रीलिङ्ग। वि हव् स्टडीड् द सर्वनाम डिरेक्ट्लि आफ्टर् द जनरल् शब्द। अकारान्त सर्वनामशब्देषु कथं भवति इति चेत्, उदाहरणार्थं सर्वशब्दः एव अस्ति, सर्वः सर्वा सर्वं, नपुंसकलिङ्गे सर्वशब्दः। वैशिष्ट्यं किमपि नास्ति वस्तुतः, प्रथमाद्वितीयाविभक्त्योः यथा ज्ञानशब्दः तथैव। इट् इस् सर्वं सर्वे सर्वाणि एण्ड् सर्वं सर्वे सर्वाणि, बिकास् नो स्पेशल् कार्य मेण्डेटेड् फार् सर्वनामस्य नापनीय। एक्चुलि इन् प्रथमा एण्ड् द्वितीयाविभक्ति इन् पुल्लिङ्ग दर् इस् ओन्ली वन् कार्य विच् वास् जस् अ षि, जस् प्रत्ययस्य स्थाने षि आदेशः आसीत्। अत्र तु जशसो षिः इति सूत्रेण सः बाध्यते, जशसो षिः ओवर्रूल्स् जस् अ षि बिकास् आफ़् परत्व। देर्फोर् दर् इस् नो डिफ़रेन्स् बिट्वीन् ज्ञानशब्द एण्ड् सर्वशब्द। तृतीयाविभक्तेः आरभ्य पुंवत् पुल्लिङ्गे यथा सर्वशब्दः तथा भवति, अर्थात् ङेर् ङे इत्यस्य स्थाने स्मै भवति, कुसिञ्योः स्मात् स्मिनौ भवतः, सर्वस्मै सर्वस्मात् सर्वस्मिन् सर्वे सर्वेषाम् आमि सर्वनामः सुट् इति यानि कार्याणि तानि भवन्ति। सो दिस् इस् जस्ट् अ हैब्रिड् इन् द फस्ट् टु विभक्तीस् इट् विल् बि लैक् ज्ञान एण्ड् द रेस्ट् विल् बि लैक् सर्वशब्द इन् पुल्लिङ्ग। एण्ड् देर् आर् आल्सो अदर् शब्दस् विच् हेव् अ बिट् आफ् अ डिफ़रेन्स्। कतर इति शब्दः अस्ति, सर्वादिगणः यदि स्मर्यते, सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर इत्यादीनि सन्ति। डतरप्रत्ययान्तः कतरशब्दः, अकारान्तः नपुंसकलिङ्गः। अत्र को विशेषः इति चेत्, अड्डतरादिभ्यः पञ्चभ्यः इति सूत्रम् अस्ति। पदत्रयं विद्यते, अदृड् डतरादिभ्यः पञ्चभ्यः। स्वमोर्नपुंसकात् इति सूत्रम् अनुवर्तते, स्वमोः नपुंसकलिङ्गे सु अम् इत्येतयोः स्थाने अड् इति आदेशो भवति। एभ्यः क्लीवेभ्यः स्वमोः अदड् आदेशः स्यात् इति सूत्रार्थः। एभ्यः नाम डतरादिभ्यः पञ्चभ्यः, क्लीवेभ्यः नपुंसकलिङ्गे सु अम् इत्येतयोः स्थाने अदृड् इति आदेशो भवति इत्यर्थः। डतरादिभ्यः इति चेत् डतरादिः सर्वाद्यन्तर्गणः, सर्वादिगणे यथा उक्तं सर्वविश्व उभय डतर डतम अन्य अन्यतर इतर इति। डतरादिभ्यः पञ्चभ्यः, पञ्चशब्दाः सन्ति डतर इत्यस्मादारभ्य इतरपर्यन्तम्। एतेभ्यः परस्य सु इत्यस्य अम् इत्येतस्य स्थाने अड् अदृड् इत्यादेशो भवति इत्यर्थः। अमादेशं बाधित्वा पूर्वसूत्रेण अतोम् इत्यनेन अमादेशे प्राप्ते, तद्बाधित्वा अनेन कतर सु इति स्थिते। अड्डतरादिभ्यः पञ्चभ्यः इत्यनेन अड्डादेशः। डकारस्य अत्र यत्संज्ञा वर्तते अ द् ड् इत्यत्र डकारस्य हलन्त्यम् इत्यनेन यत्संज्ञा, तस्य लोपः इत्यनेन लोपः, तेन कतर अद् इति भवति। यदा डकारस्य यत्संज्ञा भवति सर्वत्र एव्रिवेर् एस् सून् एस् वी से द डकार इस् इत् देर् इस् दिस् सूत्र विच् फालोस् दिस् इस् टेः। एकपदात्मकं सूत्रं त्रिविंशतेः डिति इत्यतः डिति इति अनुवर्तते, भस्य इत्यधिकारः अस्ति, डिति परे भस्य टेः लोपः स्यात् सूत्रार्थः। डित् प्रत्यये परे भस्य भसंज्ञा का भसंज्ञा, भसंज्ञा नाम किं, केषां भसंज्ञा भवति, वेरी रिमेम्बर्स् भसंज्ञा, वाट् इस् भसंज्ञा, यचिभं तेन किं भवति, कदा भवति भसंज्ञा, के के नियमाः सन्ति, यकारादौ अजादौ प्रत्यये परे पूर्वं भसंज्ञं भवति, असर्वनामस्थानं इत्यपि अस्ति। अत्र नपुंसकलिङ्गे सु इत्येतस्य सर्वनामस्थानसंज्ञा नास्ति, तेन भसंज्ञायाः सत्त्वात् डिति परे भस्य टेः लोपः स्यात्। टि नाम किम्, वट् इस् टि, सत्यम् अचो अन्त्यादिति, अन्त्यादचः परं टि संज्ञं स्यात्, अन्त्यादचः आरभ्य यदस्ति। सो टेः लोपः स्यात् इत्यनेन कतर अद् इत्यस्ति, अत्र टि संज्ञा भवति अन्तिमस्य अकारस्य, तेन तस्य टेः इत्यनेन लोपे कतर अद् इत्यस्ति। ओके, कतरद् वावसाने इत्यनेन विकल्पेन चर्त्वं भवति, दकारस्य स्थाने तकारः, तदा कतरत् इति रूपं, चर्त्वाभावे कतरद् इति रूपद्वयं, टु फार्म्स् इन् प्रथमैकवचन, कतरत् कतरद्। कतरत् कतरद् कतरे कतराणि इत्यत्र तु समानं, सो द रेस्ट् इस् द सेम्। द ओन्ली स्पेशालिटि फार् दीस् फैव् इस् दट् देर् इस् अ देर् ईस् अन् आदेश फार् सु अण्ड् अम्, द रेस्ट् विल् बि द सेम्। इन्स्टेड् आफ् कतरम् इट् बिकम्स् कतरत् आर् कतरद्। भस्य किं पञ्चमः इत्युच्यते, नौ इस् आस्किङ्ग् क्वश्चन् अबौट् द सूत्र टेः इत्यत्र डिति परे भस्य टेः लोपः स्यात्, भसंज्ञायां सत्यामेव लोपः इति किमर्थम् इत्यत्र उदाहरणमस्ति पञ्चमः। पञ्चन् शब्दस्य डट् इति प्रत्ययः क्रियते पूरणार्थे, डट् सङ्ख्यायाः पूरणे डट् इति, डट् इत्यत्र डकारस्य इत्संज्ञा अस्ति, सो पञ्च अ इत्यस्ति, तस्य मट् इति आगमः क्रियते, सो दर् इस् दट् इस् द सफिक्स् एण्ड् यु हेव् अ मट् आगम, सो वेन् यु हेव् द आगम इट् बिकम्स् पञ्चन् म। नौ सिन्स् इट् इस् टित् केन् वि डू टिलोप इस् द प्रश्न क्वश्चन् दिस् इस् नो बिकास् देर् इस् नो भसंज्ञा, if it was the only dat which is akara, then it would have been bha, because it is an ajadi pratyaya, then we could have done tilopa. But once we have the mattagama, it becomes ma, panchan ma. Since this is not ajadi, there is no bhasamya, and hence even if it is dit, there is no tilopa. Atra datah ditvepi yajaditva bhavat bhasamya nasti. Bhasamyayaha bhavat atra tilopo na bhavati. Nakarasya kevalam nakarasya nastardhite etanena lope panchamaha iti rupam. Anantaram katarat ityatra. He katarat ityasti. He katara su ityasti. Teh luptatvat prathamayoho iti purvasavarna dirghaha eng hasvat iti sambuddhi lopascha na bhavati. The question we have to ask ourselves is why this adid had to be tit. Question, you have, like say if you go back, you have katara ad. He katara ad ityasti. He katara su ityasthite sohasthane addataradipya panchabhyah ityanena adidadeshah he katara ad punaha tehe ityanena tilope he katar ad milite sati he katarat he katarad iti rupam. Atra saha prashnam iti prathamayo purva savarnah iti bhavativa athava eng hasvan sambuddhehe iti sambuddhi lopo bhavativa he katara ad iti sthate akarasya akare pare akas prathama द्वितीययोः अचिपरे पूर्वसवर्णदीर्घः एकादेशः स्यात् इत्यनेन पूर्वसवर्णदीर्घः भवेत् इत्येकः प्रश्नः. अपरन्तु एङ् ह्रस्वात् सम्बुद्धेः ह्रस्वान्तादङ्गात् परस्य सम्बुद्धेः अङ्गस्य लोपः स्यात् इति द्वितीयः प्रश्नः. प्रथमप्रश्नस्य उत्तरं तु हे कतर इति नास्ति, तेः इत्यनेन अकारस्य लोपो भवति. अकार इस् डिलीटेड्, दट् इस् वै प्रथमयोः पूर्वसवर्णदीर्घः केनाट् हेपन्. Prathamayoh Purva Savarnaha is overruled by Tehe. This is 6-4, that is 6-1. So you have He Katar Ad, and once you remove the Akara, there is no option for Prathamayoh Purva Savarnaha. And in He Katarat, which we have already seen in Sarvadigana, Eng Hasvat Sambuddhehe means Engantat Hasvantat Cha Angat Hal Lupyate Sambuddheshchet. There is a difference between He Katarat and He Jnanam. Right. What did we do in He Jnanam? There again we had He Jnana Am Amipurva Haitanena Pura Rupekate He Jnanam Tadani Makarasya Lopaha Kritaha Akaranta Dangat Parasya Sambuddhehe Hal Nama Makarasya Lopaha Ityanena Rupekate He Jnana. Can we apply a similar thing here is the question. When you have He Katarat, you have Katara which is a Hrasvanta Anga, and there is a hal which is belonging to sambuddhi. So can we delete this takara or dakara is the question. The question is clear. He katara ad ityasti, akarasya lopaha he katar ad, he katarat ityasti, he katra katara iti hraswantam asti tatah paratvena hal asti. Sambuddhehe hal nama takaraha athava dakaraha. So can we delete takara here is the question. Just like we deleted makara in He Jnana, can we delete this takara or dakara, whatever it is, in He Katarad is the question. Yeah, he says there is no ekadesha. Ekadesha is not a prerequisite for sambuddhi loka. There is no rule that there has to be an ekadesha to delete sambuddhi. Sorry, I didn't understand. There is no Ravichandranti, I didn't understand. So when we have Ekadesha, we have all that problem. Does it belong to Purva or Para? Here there is no Ekadesha. Still can we do it? I mean, Ekadesha is not a prerequisite for Sambuddhi Loka. Sambuddhi Lopa just requires a Hasvantanga and a hull which is belong to Sambuddhi. Exactly. So, Atkatara, since the Akara has been deleted, and the Akara which exists belong to the Pratyaya. So, in Kataru, Adu, if there was an Ekadesha, as you said, you could have used Purvantavadbhava and said that the Akara still belongs to the Anga. But here, there is no Ekadesha. The Akara has been deleted. Okay, so whatever remains the Akara now belongs to the Pratyaya and not to the Prakriti. So it does not belong to the Anga. The Anga here is Repha. Okay, so after Repha, Repha is not a Hraswa. So, and the Hraswa which is there does not belong to the Anga. That is why in Eng Hraswa Sambhutehe, we have Angat and it says Engantat Hraswantatcha Angat Hallupyate Sambhutheshchet. That is why in the Sutra, there itself, in Enghasva Sambhutehe, he asked Angat Kim and he gave the example, He Katarat Kuleti. He gave an example of He Katarat because here the Enghasva Sambhutehe will not apply because the Anga is not Rasvanta. The Anga is Rephanta and the Akara belongs to the Pratyaya. So that is why he says, Tehe Luptatvata. प्रथमयोः इति पूर्वसवर्णदीर्घः एङ्हस्वात् सम्बुद्धेः इति सम्बुद्धिलोपश्च न भवति हेकतरत् हेकतरद् इति रूपम् पुनस्तद्वत् शेषं पुम्वत् पुनः नाम द्वितीया विभक्तौ प्रथमावत् कतरत् कतरे कतराणि एट्सेट्रा एण्ड् देन् शेषं पुम्वत् द रेस्ट् इस् लैक् पुल्लिङ्ग which is normal pullinga akaranta sarvanama word. There is a question which is there, why can't we just add the dakara? Why are we going to the trouble of adding adu and then removing the previous akara? There is already an akara in the anga, so why can't we just directly add the dakara? Precisely why, I mean that is what we discussed now. If we directly add the dakara, in Sambuddhi, the Akara has to be deleted because the Anga is now Hraswanta. If the Akara belongs to Anga, then the Dakara would be deleted by Eng Hraswat Sambuddhehe, which we do not want. That is why he goes to the trouble of adding Akara, taking Akara to the Pratyaya part and removing the Akara from Prakriti. Otherwise, exactly that would have happened. We should have had to, like He Jnanam, we should have had to use Eng Hraswa Sambhutehe and remove the Dakara, which is not what is required. Okay. Similarly, you have five words, Dataradibhyaha Panchabhyaha, Katara Katama, Datama Pratyayantaha, Tatrapi Katamat, Katamad Iti Bhavati, Anya Anyatara Itara. So you have Itarat, Anyat, Anyatarat. So these are the five words which will have Attadesha. Anyatama Shabdasya tu Anyatamam Ittyeva. Always there is one tendency. You have Anya, Anyatara, Anyatama. You tend to treat all of them as the same. But there is a difference. Anya and Anyatara belong to the Sarvadigana. Whereas Anyatama does not belong to Sarvadigana. It is just a general word. So for Anyatama, there is no Adidadesha. It will be like Jnana Shabda. Anyatamam, Anyatame, Anyatamani, etc. Ekatarat Pratishedho Vaktavyaha, this is Vartikam. There is a thing called Ekatara, which is a Sarvanam, okay, because it's Latara Pratyayanta. So, Ekatarat Pratishedho Vaktavyaha. There is no Adidadesha because of the Vartika which says this Vartika prevents Adidadesha from applying for this word, so it will be Ekataram. Other than that, for these five, Anya Anyatara Itara are just words, Datara and Datama are suffixes, so any word ending with Datara and Datama, you will have Adidadesha. Okay. Any questions? Vartika were not there, the form would have been Ekatarat. There would have been other Adesha. Ekatarat, Ekatarat. This is not morality. Next you have Akarantaha Napumsakalingaha Ajarashaptaha. As usual, in Pulinga we had Rama and Sarva and then Nirjara. So Strilinga we had Rama, Sarva and Jara. So here also we have the same problem. Jara Shabda always offers some special things. Avidyamana Jara Yasya Tat Ajara. Yasya Tat Iti Napumsakalinga Dyotanaya. The word Ajara. Ajara ityasmat supratyaya kriyate. Ato am ityanena akarantat parasya su ityasya am adeshaha kriyate. You have ajara am. So when we have ajara su, what is the special sutra for jara shabda? Jara shabda seshaya kim sutram pravartate? Yes, Vasuji. Satyam. Jarayaha, jaras annyatarasyam ityanena. Jara shabdasya sthane, jaras ityadesho bhavati. Kada bhavati, kaha niyamaha. When is in all cases or is there in particular thing? It is not Sarvanamasthana. Sarvanamasthane pare itinasti. It is not also not all the places. What is the Riyama? What is the Sutrartha of Jaraya Jarasanitarasyama? Correct. Achipare. Ajado vibhakto parataha. When it is followed by an ajadi vibhakti, that is why in nirjaraha there is no jarasadesha. It is only nirjarasu ruttvam visargaha nirjaraha. Nirjarasau nirjarau tatra bhavati. Where you have ajadi vibhakti, there only jara is replaced by jaras. So that is why when it was su, there was no option for jaraya jarasanitasyam. But once it is replaced by am, you have ajaditvat jarayaha jarasanyatarasyam ki jarasadeshaha prapnoti. You should actually get jarasadesha. He says, soho amadeshe krute sannipata paribhashaya na jaras. Soho amadeshe krute ato am ityanena sakaras supratyasya sthane am ityadesha kriyate sannipata paribhashaya na jaras. Sannipata lakshano vidhi animittam tad vighatasya. Kimasti adantat angat parasya soho amadesho bhavati. Adantasya angasya cha sannipatam ashritya pravrittaha amadeshaha. Amadesha depends on the anga being akaranta. Right? So only if the anga is akaranta, then su is replaced by am. Okay? So now am being dependent on the akaranta and anga, the sannipata between akaranta and anga, it will not like to destroy the ajantatva or the adantatva of the anga. It does not want to remove the akara. If you do jaras adesha, it would become sakaranta, ajaras, right? So then it is not adanta. So am, which depends on the anga being adanta, does not wish to destroy the adantatva of the anga. Sannipata lakshanaha vidhihi. Akarantasya angasya cha sannipata mashritya pravrittaha amadeshaha. Tasya angasya akarantatvam ghatayitum nechati. Tasmat sannipata paribhashaya jaras adesho na bhavati. So even if it is ajanta, there is no jaras adesha. Avipurvaha ityanena purvarupe ajaram iti rupam. So there is jaras adesha is prevented by సన్నిపాత లక్షణం, సన్నిపాత పరిభాష. సో దిస్ ఈస్ వన్ ఆఫ్ ద థింగ్స్ టు బి రిమెంబర్డ్. ఐ మీన్ స్టక్ మీ జస్ట్ నౌ దట్ దర్ ఇస్ అన్ ఎగ్జాంపుల్ ఆఫ్ సన్నిపాత పరిభాష హ్యాపెనింగ్. వాట్ యూ జనరలీ సీ ఇస్, ఐ మీన్ మోస్ట్ ఆఫ్ ద కేసెస్ హీ రైజెస్ ఓకే సన్నిపాత పరిభాష షుడ్ అప్లై హియర్ అండ్ దెన్ దే ప్రివెంట్ అప్లికేషన్ ఆఫ్ సన్నిపాత పరిభాష బై సేయింగ్ ఇట్ ఇస్ అనిత్య. దట్ ఈస్ వాట్ ఇట్స్ హ్యాపన్స్ ఇన్ మెనీ కేసెస్ లైక్ ఇన్ రామాయ అండ్ ఇన్ అదర్ కేసెస్. సో ఫైనలీ వీ ఎండ్ అప్ సర్చింగ్ వేర్ ఇస్ సన్నిపాత పరిభాష యాక్చువల్లీ అప్లైడ్. So this is one of the cases where sannipata paribhasha is applied and jara sadesha is prevented. So ajaram iti rupam, ajara au ityaspi aunga hasthane napumsakaccha ityanena shi ityadesho bhavati ajara i idanim punaha ayamapi ajadihi. So now జరస్ ఆదేశ విల్ అప్లై బికాస్ షీ డస్ నాట్ డిపెండ్ ఆన్ అజంతాంగ, ఇట్ డస్ నాట్ డిపెండ్ ఆన్ ఎనీథింగ్ ఎట్ ఆల్. యాజ్ లాంగ్ యాజ్ ఇట్ ఇస్ నపుంసకలింగ, హౌ కెన్ బి రిప్లేస్ బై షీ, రైట్? సో నౌ వన్ దట్ కెన్ హ్యాపన్, దెర్ ఇస్ నో సన్నిపాత హియర్. సో హెన్ సన్నిపాత పరిభాష ఆల్సో డస్ నాట్ హ్యావ్ ఎనీ ప్లేస్. జరా ఇస్ రిప్లేస్డ్ బై జరస్. ఓకే, సో యూ హ్యావ్ అ జరస్ నిర్దిష్టమానస్య ఆదేశా భవంతి ఇత్యనేన జర ఇత్యస్య స్థానే జరస్ ఇత్యాదేశో భవతి. సో యూ హ్యావ్ అజరస్ ఈ అజరసీ ఇతి రూపం. ఆదేశాభావే అర్థాత్ జరాయా జరస్ అన్యతరస్యా వైకల్పిక ఆదేశ తదభావే యూ హ్యావ్ అజర ఈ ఆద్గుణ ఇత్యనేన గుణే కృతే అజరే. టు ఫార్మ్స్ అజరసీ అజరే. Again you have ajara jas pratyaha jashasohu shihi ityanena shi adeshaha ajara i ityasti paratvat jarasi krate jalantatvat nuhu. Now he says when you have done ajara i, now there is an option for two things. One is you can do napumsakasya jalasaha like we did for jnana i, it became jnanan i. నపుంసకస్య ఝలచ ఝలంతాద్ అజంతాచంగాత్ సర్వనామ ఝలంతస్య అజంతస్య చ అంగస్య సర్వనామస్థానే పరే నుమాగమో భవతి ఇత్యనేన నుమాగమః భవతి. నౌ సిన్స్ దిస్ ఇస్ ఎన్ అజంత దట్ షుడ్ బి నుమాగమ బై వాట్ నపుంసకస్య ఝలచ ఆర్ దట్ కుడ్ బి జరస్ ఆదేశ బై జరాయ జరసన్యతరస్య. వాట్ షుడ్ బి డూ ఇస్ ఎస్ పరత్వాత్ జరసి కృతే. So because jaraya jarasanya tarasya is the para sutra, it is in 72 napumsakasya jalasaha is 7152 something, we will see next. So it is 7172. Okay. So paratva jarasi krate, we do jaras. Now this is not ajanta but this has become jalanta. Okay. So previously we would have got numagama because it was ajanta, but now it is not ajanta, it has become jalanta. స్టిల్ నపుంసకస్య ఝలచ ఝలంతస్యాపి భవతి అజంతస్యాపి భవతి ఝలంతత్వాత్ అత్ర నుమాగమే కృతే నుమాగమః కుత్ర భవతి మిదచోంత్యాత్ పరః అంత్యాదచః పరత్వేన నుమాగమః. సో ద ఫైనల్ అచ్ హియర్ ఇస్ అ. సో యూ హ్యావ్ అజర న్ స్ ఇ అజర న్ స్ ఇ ఇతి స్థితే. What should we do now is the question. Now there is no, in jnanani we did upadha dirgha. So when nakara is at the end, tasya upadhayaha dirghaha bhavitum arhati. Kintu atra nakara eva upadhayam asti. The upadha here is nakara itself and not akara. So we cannot use sarvanamasthane cha sambuddhau to get the dirgha here. Santa mahataha sanyogasya iti agrimam sutram. పదద్వయం విద్యతే ఢలోపే పూర్వస్య దీర్ఘోణః ఇత్యతః దీర్ఘః ఇతి అనువర్తతే నోపధాయాః ఇతి అనువర్తతే నకారస్య ఉపధాయాః దీర్ఘః. సర్వనామస్థానే అసంబుద్ధో సర్వనామస్థానే పరే నకారస్య ఉపధాయాః దీర్ఘః భవతి శాంతమహతః యదా సః నకారః మహత్ శబ్దస్య నకారః అథవా శాంతః సకారాంత సంయోగస్య నకారః. सान्तसंयोगस्य महतः च यः नकारः तस्य उपधायाः दीर्घः स्यात् असम्बुद्धौ सर्वनामस्थाने परे. सो दिस् इस् वन् आफ् यु आल्रेडि हेव् सर्वनामस्थाने च असम्बुद्धौ विच् गिव्स् नोपधायाः नकारस्य उपधायाः दीर्घः. She says, also when nakara is not at the end, it belongs to mahat shabda, or it is the part of a sanyoga ending in a sakara, which is the case which we have here. Ajara nu su nakara sakara yo sanyoga hasti, santa sanyoga ha. Santa sanyoga se nakara se upadhaya ha. So the letter which precedes the nakara will get dirgha and followed by asambuddhi sarvanamasthana. So therefore you have ajaran su e santa mahata sanyogasya etanena makarasya upadhayaha akarasya dirghe kute ajaran su e ityasti. Shall I ask this? Nascha padantasya jali. You remember sandhi prakarana. Nasya masya cha padantasya anuswarasya jali pare. So sakare pare nakarasya apadantasya nakarasya sthane अनुस्वारादेशे अजरांसि इति रूपम् आदेशाभावे वेन् देर् इस् नो जरस् दिस् इस् द केस् वेन् देर् इस् जरसादेश वेन् देर् इस् नो जरस् यु हाव् नपुंसकस्य छलसः इत्यनेन अजन्तस्य नुमागमः. सो नौ दिस् इस् अजन्त अजर इस् अजन्त सो यु हाव् नुमागम सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधादीर्घः. इदानीम् अजरान् इ अट्कुप्पाङ्गं व्यवा एपि इत्यनेन णत्वे अजराणि अजरांसि अजराणि इति रूपद्वयं भवति. सो अजरम् इति एकमेव रूपम् अजरसि अजरे अजरांसि अजराणि. अगेन् यु हाव् द सेम् वाट् हेपन्स् इन् अम् अमि लुकः अपवादम् अम्भावं बाधित्वा परत्वात् जरस् हि सेस् यु हाव् am, you have ajara am. What happened in ajara su was when it is supratyaya there is no option for jaras because there is no ajaditva. Only after you do the amadesha you can get jaras. But now you have am already, you have ajara am where it is already ajadi. So there is an option of doing jaraya jarasanya jarasya and there is an option of doing ato am. Okay, the sutra krama is this. So there is first is svamor napumsakat, a sutra which we have not studied so far. Agre agamishyati kimuchyate napumsakat paras parayohu su amohu luk bhavati. So they will be deleted is what svamor napumsakat tells. Okay? So preventing that ato am, if the anga is akaranta, instead of being deleted the su and am are replaced by am. Okay? So therefore he says ami lukah apavadam samor napumsakaditi ah luk tasya apavada bhutah ato am iti am tam badhitva. So overruling ato am you have jaraya jarasanyatarasyam paratvat jarasadeshah saptamadhyayase dvitiya pade vihitatvat ato am iti ambhavam badhitva paratvat jarasadesho bhavati tena ajaras am ityasti. ततः सन्निपातपरिभाषया न लुक् नौ वन्स् वि हाव् अजरस् अम् अदन्तत्वं नास्ति देर् इस् नो अदन्तत्व सो अतो अम् विल् नाट् अप्लै बट् स्वमोर्नपुंसकात् केन् अप्लै नम् बिकास् एस् लाङ्ग् एस् इट् इस् नाट् अकार स्वमोर्नपुंसकात् द लुक् विल् डिलीट् द प्रत्यय. सो अगेन् हि सेस् सन्निपातपरिभाषया न लुक् किमर्थम् अजादिं विभक्तिम् आश्रित्य जरसादेश प्रवृत्तः जरसादेश वास् डन् डिपेण्डिङ्ग् आन् द प्रत्यय बीङ्ग् अजादि नौ इफ् द प्रत्यय इट् सेल्फ् इस् डिलीटेड् इट् इस् अपोसिङ्ग् सन्निपातम्. सो जरसादेशः अजादिप्रत्ययम् आश्रित्य प्रवृत्तः. इदानीं यदि जरसादेशे कृते अमः लुक् स्यात् तर्हि सन्निपातपरिभाषायाः विरोधः स्यात् तेन जरसादेशे कृते स्वमोर्नपुंसकादिति लुक् न भवति अजरसम् इति रूपम्. जरसादेशाभावपक्षे तु अजर अम् इत्यस्ति अतो अम् इति अमः स्थाने अम् अमिपूर्वः इत्यनेन पूर्वरूपे अजरम् अजरसम् अजरम् इति रूपद्वयम्. इन् सुप्रत्यय इट् इस् ओन्ली वन् फार्म् अजरम् इन् अम् In Dvitiya Ekavachana, there are two forms, Ajarasam and Ajaram. Any questions? The remaining two vibhaktis, that is Vivachana and Mahavachana, will be same. Ajarasi, Ajare, Ajaramsi, Ajarani. Shesham Pumbat. The remaining as it is in Pullinga. That is, you will have Ajarasa, Nirjarasa, Nirjarena, Itivat, Ajarasa, Ajarena, Ityari. So, yes, to explain this again. Question is, you have we don't have to be concerned with all that. It is here, it just means lopa, that is all. Look is just lopa. After look, if we have to do some karya, we look at pratyalakshana, nalumatangasya, etc. But for this purpose, we don't need anything. It's just deletion. Okay? And Sannipata Paribhasha does not allow deletion. The question is, you have three sutras which could apply here. Swamor napumsakat ityanena. Napumsakat parayohu swamohu lopo bhavati. Luk bhavati iti prathamam sutram. Atom ityatra adantad angat adantad napumsakat parayohu swamohu amadesho bhavati. Jaraya jara sanyatrasya mityanena. Ajadu vibhakto parataha jara shabdasya jaras adesho bhavati. So these are the three karyas. So, in the beginning, what we have initially is you have Ajara and you have Am. Dvitiya Ekavachane Am Pratyaha. Yanim Prashnaha. Ato Am. Esham Sutranam Kim Karaniyam. Iti Prashnaha. First, Swamo Napumsakat which will apply. Will have a chance to apply because it is the general sutra. It just says if it is Napumsakalinga, Su and Am are deleted. Samo Napumsakat is overruled by Ato Am because it says if it is Adanta Anga, if the Anga is Rasvakaranta, instead of deletion, you replace it with Am. Okay. So, Samo Napumsakat is overruled by Ato Am. Ato Am is again overruled by Jaraya Jarasanyatrasyam because it is Parasutra. Paratvat Ato Am iti Ambhavam Vadhitva Jaraya Jarasanyatrasyam ityanena Jarasadesho Bhavati. Tenakim asti idanim Ajara Am. Jaraya jarasanyatarasya mityanena jarasa adeshe krute ajaras am ityasti. Fine. Now the question is, now can we apply swamor napumsakat? Initially, since anga was akaranta, we said ato am would apply. Idanim to akarantatvam nasti. Ajaras iti sakarantatvam eva asti. Idanim swamor napumsakat ityanena pratyasya. So am pratyasya lopo bhavati va iti prashnaha. Na bhavati iti uttaram. Kimartham na bhavati? Sannipata paribhasha virodhat. Sannipata lakshanaha vidhihi animittam tad vighatasya. Atra jaras adeshaha. Ajadi pratyam. Ajaditvasya pratyasya sa sannipatam ashritya pravrattaha. Jaras adesha is entirely dependent on the pratyaya being ajadi. Now, if the pratyaya itself is being deleted, it is going against the principle of Sannipata Paribhasha. So, if Jarasadesha becomes Nimitta for Pratyaya Lopa, then it is Sannipata Paribhasha Virodha. That is why we cannot delete the Pratyaya after doing Jarasadesha. Since Jarasadesha itself was dependent on the Pratyaya, Ajadi Pratyaya, after doing Jaras, we cannot delete the Pratyaya. Sannipata Paribhasha, Paribhashaya, Luk na bhavati, Tena Ajaras Am ityasti. So we just have ajarasam. Adesha bhava paksheto ajaram iti rupa. Shesham pumbati. The rest will be like pullinga. Paddan Nomas iti Hridaya Udaka Asyanam Hrid Udan Asan. Paddan Nomas Hrin Nish Asan Yushan Doshan Yakan Chakan Udan Asan Shastra Pratishu. So he takes the three Napumsakalinga words which are in the sutra. all others, I mean some of them have been covered in pullinga, some of them in strilinga. Idani napumsakalinga shabdaha trayaha santi sutre. Pada, danta, paddan, no mas, nasika, masa, all of them have been covered earlier. This hridaya, hrid adeshaha, paddan, no mas, hrit, hrit iti hridaya shabdasya adeshaha. Nish, asan, yushan, doshan, yakan, shakan, all of them again will be in either ajanta pullinga or halanta pullinga. Udan, asan, udan is an adesha for udaka shabda. Asan is an adesha for asya shabda. Hridaya udaka asya iti sarvepi napumsakalinga shabdaha. Tena tesham shas prabhridishu. Shasadav arabhya ete adeshaha bhavanti. Hridaya. Hridayam hridaye hridayani. Hridayam hridaye. Suti, it is usual. It is like jnana shabda. There is no difference. Only beginning with shas you have the adesha. They have hridaya shas pratyaye pare. Hridaya I ityasti, dashaso shihi ityanena, shi, hrid I, paddan nomas ityanena, hridaya shabdasya sthane, hrid ityadesha, hrid I ityasti, idani, napumsakasya jhalachaha, this is again jhalanta, jabhai ghadadash, jabagadadash, dakaraha jhalvarnaha, చలంతత్వాత్ నపుంసకస్య చలసః ఇది సర్వనామస్థానే పరే నుమాగమే హృ ను ద్ అంత్యాదశః పరః మిత్ ఆగమః హృ ను ద్ ఇ నశ్చాపదాంతస్య చలి ఇత్యనేన నకారస్య స్థానే అనుస్వారః మస్య మస్య చ అపదాంతస్య చలి పరే అనుస్వారః తదనంతరం అనుస్వారస్య యయి పరసమరణః యయాదౌ పరతః అనుస్వారస్య స్థానే పరసవర్ణః ఆదేశో భవతి తేన దకారస్య పరసవర్ణః దకారస్య సవర్ణః నామ నకారః హృంద్ ఇ హృంది ఇది రూపం ఆదేశాభావే హృదయాణి దెర్ విల్ బి టూ ఫార్మ్స్ దెర్ ఇస్ హృంది అండ్ హృదయాణి హృద హృద్భ్యాం ఇత్యాది సో లేటర్ యు హావ్ హృదయ ఆ హృద్ ఆ హృద దెర్ ఇస్ నో అదర్ కార్య హృదా హృద్భ్యాం హృద్భి హృదయ హృద్భ్యాం హృద్భ్య ఇత్యాది హృది హృదో హృత్సు తత్ర చత్వం భవతి ఖరిచయతి చత్వం తావదేవ దట్ ఇస్ ఆల్ సో ఇన్ షస్ నుమాగమ ఇస్ ద ఎక్స్ట్రా ఉదక శబ్దస్య స్థానే ఉదన్ ఇత్యాదేశ ఉదక అస్ స్థితే యశసో షిహి ఇత్యనేన షి ఉదక ఇ ఉదన్ ఆదేశ పద్దన్నోమాస్ ఇత్యనేన ఉదన్ ఇ ఇదానీం అత్ర నుమాగమః భవతి వా కెన్ వి డూ నుమాగమ హియర్ చలంతత్వాత్ ఇట్ ఇస్ నాట్ అజంత బట్ చలంతత్వాత్ నుమాగమః భవతి వా Can we do numagama like we did for Sridha E? సత్యం సర్వనామస్థానే పరే నుమాగమః శ్రీ ఇత్యస్య శ్రీ సర్వనామస్థానం సర్వనామస్థాన సమయ అస్తి ఇట్ ఇస్ నాట్ ఝలంత నకార డస్ నాట్ బిలాంగ్ టు ఝల్ ఇస్ అ కామన్ మిస్టేక్ వీ ఆల్వేస్ మేక్ ఝల్ స్టార్ట్స్ ఆఫ్టర్ న్యమగణనం హైవరట్ లన్ న్యమగణనం ఝభై ఇంక ओके सिंस दिस इज नॉट झलंता नपुंसकस्य झलसः इत्यनेन नुमागमो न भवति राइट सो आई मीन देयर आर समटाइम्स वेरी सिंपल थिंग्स बट वी स्पेंड सम टाइम ओवर इट बिकॉज वी डू नॉट एग्जामिन द रूल्स प्रॉपरली उदन ई सर्वनामस्थाने च असंबुद्धौ इति तु उपधादीर्घः भवति नान्तस्य उपधायाः दीर्घः स्यात् असंबुद्धौ सर्वनामस्थाने परे उदानि उपधायाः दीर्घे कृते उदन् इ उदानि इति भवति उत्ना तृतीया विभक्तौ पुनः उदक आ उदन् आ अल्लोपो नः सो यु हाव् अत् लोप यु हाव् वेरेवर् यु हाव् अन् यु हाव् आलरेडि सीन् दिस् इन् यूष्णादो एट्सेट्रा अन् इति स्थिते अनः अत् लोपः अत् इत्यस्य लोपो भवति अत् नाम अकारस्य ह्रस्व अकारस्य लोपो भवति भसंज्ञायां सत्यां सो यु हाव् उदन् आ भसंज्ञायां सत्याम् अजादित्वात् भसंज्ञा भसंज्ञायां सत्वां सत्याम् अल्लोपे उद् न् आ उद्ना इति रूपम् उदभ्याम् उदन् भ्याम् इति स्थिते पदसंज्ञा भवति सर्वनामस्थाने स्वादिशसर्वनामस्थाने इत्यनेन तदा तु उदन् भ्यां न लोपः प्रातिपदिकान्तस्य प्रातिपदिकसम्यकं यत् पदं तदन्तस्य नकारस्य लोपः स्यात् इत्यनेन नकारलोपे उदभ्याम् उद्ना उदभ्याम् उदभिः उद्ने उदभ्याम् उदभ्यः सीन् दिस् वेरेवर् यु हाव् नकारान्त देर् आर् त्री थिङ्ग्स् विच् यु हाव् टु रिमेम्बर् अन्य सर्वनामस्थाने च असम्बुद्धौ अन्य अल्लोपो नः and the third is nalopa pratipadikantasya there are chances of all three of them being applied udna udabhyam udabhihi udne udabhyam udabhyah ityadi ni rupani third word was asanna asan will be entirely like udan both of them are nakarantas so asan e jasi pare e itasmin pare upadhari rahe asani yatha udani तथा आसानि इति भवति आस्ना आसभ्यां पुनः अजादौ परतः अल्लोपः हलादौ परतः न लोपः इत्यनेन आस्ना आसभ्याम् इत्यादि उदकशब्दवदेव भवति इन् कनेक्षन् वित् वद वार्तिक मांसप्रतना सानूनां मांसकृत् स्नमो वाच्यः मांस इति अकारान्तं नपुंसकलिङ्गं तस्य स्थाने मांस् इति आदेशो भवति मांस अस् पुनः अत्र षि मांसि इत्येव यु जस्ट् रिप्लेस् मांस वित् मांस् एण्ड् जायिन् इट् इट् इस् मांसि मांसा मांस् अ मांसा मांसभ्याम् इत्यस्ति मांसादेशे मांसभ्याम् इदानीं संयोगान्तस्य लोपः इत्यनेन सलोपः इत्युच्यते यु हेव् नकार सकार वन् थिङ्ग् विच् यु टु रिमेम्बर् अबौट् मांस वन् थिङ्ग् विच् इस् स्पेशल् अबौट् मांस इस् ओरिजिनलि इट् वास् मा न् स् देर् वास् अ नकार नुमागम हेस् बीन् डन् इन् द आदेश इट् सेल्फ् सो देर् इस् मा न् स् द नकार by nashtapadantasya chali has been converted to anuswara so now you have mams bhyam now ayogavahas can be both hal and ach so if we consider it as hal there is a sanyoga so because it is a sanyoga and there is a padasamya sanyogantasya lopaha sanyogantam yat padam tadantasya lopahasya ityanena sakarasya lopo bhavati sakara is deleted by sanyogantasya lopaha Now, what will happen to the anuswara? That's the question. So, there is a paribhasha which says, Nimittapaye naimittikasya api apayaha. Nimittapaye. So, nimittam is the cause for some karya. Nimittapaye. When the nimitta is destroyed, naimittikasya api apayaha. Naimittika means something which is dependent on the nimitta. Okay? So, that will also be removed. For example, what had happened here, as I told, is manu su iti sthite nashchapadantasya jali ittenena nakarasya sthane anuswarah asit. So when there is sakara, the na was converted to anuswara. Now, once the sakara is removed, sakara was the nimitta for anuswara. Sakarasya apaye, nama sakarasya lope krite, naimittikasya, nama anuswarasya api nivritti bhavati. So the anuswara is also removed and the nakara comes back. Okay. So the nakara, it was originally a nakara, it had been converted to anuswara by nashchapadantasya jali. Now once the sakara, the nimitta which is jal, which is sakara is removed, you go, the anuswara is again reconverted, it comes back into nakara. So you have manu bhyam. Sanyogantasya lopaha ityanena salopaha, salope krite, nimittapaye naimittikasya pyapayaha. That is the paribhasha. Taya paribhashaya anuswarasya nivrittau. Anuswara also returns, it is removed and you come back to the original thing which was nakara. Question, the bhakara is also jhal. So initially the sakara was jhal and that's why the na was converted to anuswara. Bha is also jhal, jha bhai. So why can't we convert this nakara to anuswara using this jhal as the nimitta? Bhakarasya api jhaltvat kimartham atse nakarasya anuswaratvam nasti. The form has been given as manbhyam. Exactly. Nascha apadantasya. Nascha apadantasya jhali has apadantasya. Now this nakara has become padanta. Because there is padasamya by swadisho sarvanamasthane. Therefore we cannot apply nascha apadantasya jhali. The nakara remains as it is. Manbhyam. Mamsa manbhyam manbhihi. Mamse manbhyam manbhyaha. Ityadi ritya rupani. So there is a bit more about Padanomas, which we will see in the next class. Any questions?